पापखण्डनं स्वभक्तचित्तरञ्जनं सदैव राममन्त्रयम्। जटाकलापशोभितं समस्तपापनाशकं स्वभक्तभीतिभञ्जनं भजेह राममन्त्रयम्। निजस्वरूपबोधकं कृपाकरं भवापहं समं शिवं निरञ्जनं भजेह राममन्त्रयम्। सदा प्रपञ्चकल्पितं ह्यनामरूपवास्तवं नराकृतिं निरामयं भजेह राममन्त्रयम्। निष्प्रपञ्चनिर्विकल्पनिर्मलं निरामयं चिदेकरूपसन्ततं भजेह राममन्त्रयम्। महासुवाक्यबोधकैर्विराजमानवः